ॐ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्छाज्ञानजं भिन्नं तस्मै पाणिनये नमः। श्रीगुरुभ्यो नमः। नमस्सर्वेभ्यः। धन्यवादः महोदय।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र व्यञ्जनसन्धिः। व्यञ्जनसन्धौ वयं केचन सन्धयः तत्र अस्माभिः दृष्टाः। इदानीं तत्र वयं छर्त्वसन्धिः इति विषये पठन्तः स्मः। तर्हि तत्र अस्तु, तत्र शोभा भगिनी तत्र वावसाने इति ततः आरभ्य पठति वा भगिनि?
आं महोदय। वावसाने इति सूत्रं किं तत्र अष्टमाध्याये चतुर्थपादे षड् पञ्चाशत्तमं सूत्रम्। अवसाने झलः विकल्पेन चर् आदेशो भवति, अनेन अवसानावस्थायां विकल्पेन जस्त्वं चर्त्वं वा अव्ययपदम्। अवसाने सप्तम्यन्तं द्विपदमिदं सूत्रं। झलां झष् झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः, अभ्यासे चर्चा इत्यस्मात् चर् इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रम् अवसाने झलां चरो वा इति तत्र। अपि च वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत् अवसानम् इति उच्यते। वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र अवसानसंज्ञा भवति, तदर्थं संज्ञासूत्रम् अस्ति इति अग्रे आगच्छति। किन्तु वावसाने इति सूत्रं वा अवसाने इति सूत्रस्य पदच्छेदः, अपि च अनुवृत्तिसहितसूत्रम् अस्ति। अवसाने झलां चरो वा चरः वा इति, इत्युक्ते अवसाने चरः वा झलां चरः वा इति। अस्तु, अवसाने इत्युक्ते यस्मात् परं कोऽपि वर्णः नास्ति, किमपि नास्ति इति, तदा झलः विकल्पेन चर् आदेशः भवति। इत्युक्ते पदान्तझलस्य झलः इति तत्र षष्टिविभक्तिः, झल् वर्णस्य विकल्पेन वैकल्पिक प्रयोगः अस्मिन् सूत्रस्य, चर् आदेशः भवति। चर् इत्युक्ते तत्र वर्गीयव्यञ्जनानां प्रथमवर्णः आदेशरूपेण भवति, यत्र झल् वर्णः पदान्ते अस्ति। अपि च अनेन अवसानावस्थायां विकल्पेन जस्त्वं चर्त्वं वा इत्युक्ते, यदि अस्य सूत्रस्य कार्यं भवतु अथवा न भवतु इति अस्माकं विवक्षा अस्ति। यदि कर्तुम् इच्छामः चेत् कर्तुं शक्नुमः, नो चेत् यत् झल् वर्णः तत्र अस्ति तदेव तिष्ठति, तदपि सम्यक्। अतः विकल्पेन जष्त्वम् इत्युक्ते जष् वर्णस्य आदेशः, नो चेत् चर् वर्णस्य आदेशः, द्वयोः प्रयोगः अपि समीचीनम् एव इति। अपि च तत्र झलां झष् झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः स्वीकृतम्, अभ्यासे चर्चा इत्यस्मात् चर् इत्यस्य अनुवृत्तिः, अतः अन्ते अवसाने झलां चरो वा इति भवति। अपि च अवसानम् इत्युक्ते किम् इति उक्तं तस्मात् परं, तदेव तत्र लेखनावसरे वदनावसरे अपि अग्रे कोऽपि शब्दः एव नास्ति चेत् अवसानम् इति वदामः इति, तत्र अवसानसंज्ञा भवति वाक्यस्य अन्ते पूर्णविरामः यदा भवति तत्र अवसाना इति संज्ञा भवति, तदर्थमपि एकं सूत्रम् अस्ति अग्रे अस्ति।
समीचीनं। तर्हि तत्र अवसाने इति वयं दृष्टवन्तः तत्र चर्त्वसन्धिः मध्ये अपि भवति, अपि तत्र पूर्वं तत्र जष्ट्वसन्धिः विषये अपि तत्र अवसान इति आगतः अस्ति। तर्हि तत्र जष्ट्वसन्धिसन्दर्भे अपि तत्र चर्त्वसन्धिसन्दर्भे अपि तत्र अवसाने इति इति तस्य महत्वं भवति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे तत्र वेदभगिनी अग्रे पठति वा?
आम् महोदय. विरामोवसानं प्रथम अध्याये चतुर्थपादे दशाधिकशततमं सूत्रं वा?
समीचीनं.
वर्णानाम् अभावः अवसानसंज्ञकः. अवसानसंज्ञा इत्युक्ते अवसानसंज्ञा किमस्ति इत्युक्ते वर्णानाम् अभावः, तस्य नाम अस्ति अवसानम्. विरामः नामः न, तस्य नाम अवसानम् इति. विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं, विरामः अवसानं. संज्ञासूत्रम् अस्ति तदेव तत्र कोऽपि अनुवृत्ति न, तत्कारणेन अनुवृत्ति नास्ति इति वक्तुं शक्यते वा? संज्ञासूत्रमस्ति चेत् कोऽपि अनुवृत्ति न आगतवती इति
नास्ति. किन्तु तत्र प्रथमान्तं प्रथमान्तम् अस्ति, तर्हि तत्र नामकरणम् अथवा संज्ञा
नामकरणम्
इति तादृशमेव भवेत्.
तदेव तत्र विरामः अवसानम् इति उक्तं. विरामः इत्युक्ते अवसानं. यथा अस्ति विद्युत्, तत्र अस्मिन् वाक्ये विद्युत् इति पदमस्ति, पदान्ते तकारो विद्यते, अतः जलां जशोन्ते इत्यनेन नित्यं दकारादेशो भवति. जलां जशोन्ते इत्युक्ते जलां जशोन्ते पदान्ते अपदान्ते अस्ति, अपदान्ते जलां जशोन्ते पदान्ते अस्ति, पदान्ते अस्ति. तत्र पदान्ते कोऽपि नास्ति, अवसानमस्ति इति कारणतः तत्र नित्यं दकारादेशो भवति. एकमिनिट्,
अवसानम् इति वार्ता नास्ति,
तस्य तस्य वार्ता
जलां जशोन्ति इत्येव, तेनैव
जलां जशोन्ति इत्यनेन नित्यं दकारादेशो भवति. विद्युत् तत्र जलां जशोन्ते इत्यनेन विद्युद् दकार आयाति. अधुना अस्मिन्नेव वाक्ये विद्युत् शब्द वाक्यस्य अन्ते अस्ति, ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा विरामोवसानम् इत्यनेन अवसानसंज्ञा भवति. तदर्थं च वावसाने इत्यनेन विकल्पेन चत्वादेशो भवति. अस्तु, विद्युत् इति पदम् अस्ति, तत्र अन्तिमवर्ण तकार अस्ति. जलां जशोन्ते सूत्रेण तस्य दकार भवति, तृतीयवर्ण आयाति, दकार भवति, जस् वर्ण आयाति, विद्युत् भवति. अधुना विद्युत् इति पदस्य अग्रे कोऽपि शब्दः कोऽपि स्वरः नास्ति इति कारणतः इति कृत्वा विरामोवसानम् इत्यनेन अवसानसंज्ञा भवति. तदर्थं वावसाने सूत्रं तत्र तस्य प्रसक्तिः अस्ति तत्र, इत्यनेन विकल्पेन तत्र चत्वम् अपि भवितुम् अर्हति. विद्युत् जस्त्वं भवति, अपि च चत्वमपि भवति वावसाने इति सूत्रेण विकल्पेन चत्वमपि भवति. विद्युत् तकारः पदान्ते, जलां जशोन्ते इत्यनेन नित्यं जश्वादेशः. विद्युद् दकारः अवसाने, वावसाने इत्यनेन विकल्पेन चत्वादेशः इति कारणतः विद्युत् विद्युद् इति रूपद्वयं दृश्यते.
समीचीनं भगिनि, तथैव अस्ति. तर्हि तत्र जष्ट्वसन्धिरूपं स्वीकुर्मश्चेत् विद्युत् भवति, जष्ट्वसन्धि विद्युत् इति भवति. समीचीनं भगिनि, अस्तु, उत्तमं. तर्हि तत्र इदानीं तत्र गीताप्रवेशे तत्र पुस्तके कुत्र स्मः, चतुस्त्रिंशत्
कुत्र अस्ति वा अवसाने?
34 तत्र चत्वसन्धिः इति अस्ति, तत्र उदाहरणानि पश्यामः. अपि एकः एव अभ्यासः अस्ति, तमपि कुर्मः. तर्हि तत्र अग्रे उषा भगिनी करोति वा?
आं महोदय.
उषाधिपतिभगिनी तत्र उषास्वामिनाथनभगिनी अपि अस्ति इति मन्ये. हा हा अस्तु ओके अस्तु उषाधिपतिभगिनी आरम्भं करोति वा.
मञ्जुषायां निर्दिष्टेषु पदेषु उचितपदं चित्वा रिक्तस्थानानि
न न तद् नास्ति
न न पूर्वं पूर्वं तत्र उदाहरणानि परिशीलयत इति
चत्वसन्धि
अस्तु महोदय.
हा तद् न कृतवन्तः.
एतानि उदाहरणानि परिशीलयत. षड् योगः कोनः, षकारयोगः डकारयोगः ककारयोगः ओनः, डकार झल् प्रथमपदस्य अन्तिमवर्णः अस्ति झल् प्रत्याहारवर्णः. को तत्र क खर् प्रत्ययवर्णः अस्ति. खरिच इति सूत्रेण षड् कोणः इति नकारः भवति न महोदय तत्र
किं भगिनि
को नकार मूर्धन्ये नकारः भवति न महोदय
किमर्थं
न
प्रथमे सन्धि कुर्मः तदनन्तरं नत्वं प्रति चिन्तयामः.
झल् प्रत्याहार तत् वर्गीयस्य तृतीयवर्णः टकार अस्ति अतः ष योगः ट योगः क योगः ओनः षट् कोनः इति रूपम्.
तर्हि तत्र तृतीयसदस्यः आसीत् प्राक् वर्गीयतृतीयसदस्यः इदानीं चत्वसन्धेः कार्यानन्तरं
षट् को
प्रथमवर्गीयप्रथमव्यञ्जनं स्थापितमस्ति. इदानीं तत्र षट् कोणः कोणः वा कोणः वा
समस्तपदमस्ति
इति मन्ये महोदय.
समस्तपदे केन सूत्रेण णत्वं भवति इति चिन्तयामि. समस्तपद अस्ति तत्र षकारपूर्वपदे अस्ति.
नकारः
बाधकवर्णः अस्ति मध्ये अस्ति खलु चवर् तत्र तवर्गीय
अट्कुप् इति न महोदय
न अट्कुप् वाङ् टकार इस् ओके. ककार कवर्ण
न भगिनि ककार कथम् ओके
तत्र कवर्ग पवर्ग अस्ति चेत्
अट् इत्युक्ते स्वराः इत्युक्ते नै
अपि
तदनन्तरं तत्र कवर्गः पवर्गः खलु
कवर्गनिषिद्ध.
तर्हि अतः तत्र नत्वं न भवति एव खलु
नत्वं
न भवति न भवति भगिनि न भवति. बाधकवर्णः अस्ति समस्तपदम् इति चिन्तया नास्ति तत्र न भवति इति चिन्तयामः चेदपि तत्र बाधकवर्णः तु अस्ति. अस्तु अग्रे भगिनि.
दिग् योगः पालः, दि योगः गकारयोगः पकारयोगः आलः. दिग् इत्यस्य गकारः झल् वर्णः, पा खर्वर्णः चर्वर्णः अतः दि योगः ककार ग झलां जशोन्ते न झल्वर्णः झल् स्थाने खरीच किं वदति एकनिमिषं महोदय. खरीच झलः स्थाने चर् आदेशो भवति खरीपदे इति सूत्रेण गकारस्य स्थाने ककार आगच्छति अतः दि योगः ककारयोगः पकारयोगः आलः दिक् पालः इति रूपं निष्पन्नं भवति.
हा इति अस्ति समीचीनम् उत्तमम्. अस्तु अग्रे उषास्वामिनाथन् भगिनी अग्रे.
अस्तु महोदय. महोदय षट्कोणः ऐ डोण्ट् सी एनि बाधकवर्णः नास्ति परन्तु समानपदं नास्ति इत्यनेन वा इति अहं न जानामि.
किमर्थं भगिनि डकारः तु बाधकः अस्ति खलु भगिनि.
नो डकार अट् हयवरट् हय अस्तु तकार तकार हित् वर्णः महोदय तकार इत् वर्ण सो द तकार इस् नाट् गोयिङ्ग् टु बि इन्क्लूडेड् रैट् अट् व्यवाये अपि
न टकारः तत्र वर्गीयव्यञ्जने केवलं तत्र कवर्गः पवर्गः
कवर्गः पवर्गः
तेन तत्र तत्र तैः बाधा न भवति किन्तु
मूर्धन्य इत्यनेन
केवलं तत्र
बट् षड् इस् आल्सो समानपदं नास्ति
तत्र अन्ये अतः णत्वं तु न भवति
किन्तु महोदय तत्र प्रयोगे
षट्कोण
कोण इति
एव वयं श्रुतं
किन्तु कथं भवति
अस्माभिः श्रुतं कोणः एव वयं
बट् णत्वविषये समस्त समस्तपदे एकं सूत्रमस्ति तद् न स्मरामि एकनिमिषम्
सङ्ख्यानां विषये किमपि अस्ति वा कुत्र भवति इति षड् इत्यस्य विषये प्रायशः षडानना इति किमपि न
षडानना
षट्कोणः इति एव अस्ति किन्तु प्रायशः भगिनी तत्र प्रायशः किं तत्र कोण इति भिन्नं वा तत्र
षट् कोण यस्य इति एव वाचस्पत्यां दत्तं महोदय षट् कोण यस्य इति किन्तु
भगिनि प्रायशः तत्र किम् अस्ति अत्र अहं चिन्तयामः तर्हि तत्र मुद्रणदोषः अस्ति इति मन्ये भगिनि तत्र कोणः एव तत्र णत्वम् इति मूर्धन्यणकारः एव अस्ति इति मन्ये तत्र षकारेण मूर्धन्यणकारः इति न
नास्ति
पदमेव षट् कोण षट् कोण यस्य
अतः अस्माकं भ्रमः
इवन् सौन्दर्यश्लोक आल्सो
कोण इत्यस्य किमपि अर्थः अस्ति तर्हि
कोण इति तस्य
कार्नर्
नकारः तत्र
सिक्स् एङ्गल् फिगर् इति दत्तमस्ति
कुणति कुणति इति किमपि अस्ति महोदय कुणति इति कोणः इति
अस्तु अस्तु अस्तु
तथा पदमेव अस्ति कोणः इति
पदमेव पदे एव णकारः मूर्धन्य णकारः अस्ति
अस्ति
तर्हि समस्या
भ्रमः
तर्हि णत्व णत्वम् इति कारणेन तत्र णकारः नास्ति तत्तु समीचीनम् उत्तमम् अस्तु तर्हि उषास्वयं भगिनी अग्रे
अस्तु महोदय अस्मद् योगः पुत्रः अस्मद् अन्तिमदकारस्य अनन्तरं पकारः अस्ति पकारः खर् वर्णः इत्यनेन धकारस्य स्थाने खरिच इत्यनेन दकारः झल् वर्णः इत्यनेन जलां स्थाने कर् आदेशः भवति खर् आदेशः भवति यतोहि अनन्तरं खर् वर्णः अस्ति पकारः अस्ति अस्मत् दकारः तकारः भवति अस्मत् पुत्रः इति भवति अस्मत् पुत्रः अनुष्टुब् योगः छन्दः अनुष्टुब् भकारः अनन्तरं च अस्ति च अपि खर् वर्णः भकारः झल् वर्णः झल् स्थाने चर् आदेशः भवति चकारः परः अस्ति इत्यनेन भकारस्य स्थाने पकारः आयाति अनुष्टुप् अनुष्टुप् छन्दः इति भवति अनुष्टुप् छन्दः
समीचीनम् अनुष्टुप् छन्दः समीचीनं
गीता
महोदय अस्मत् पदम् अस्ति वा महोदय
आम्
अस्मत् तत्र
गतवर्षे भगिनी उक्तवती
अस्माकम् इति अस्माकम् इति तत्र समस्त तत्र समस्तपदे तत्र प्रातिपदिकम् एव भवति तत्र अस्मद्
समास इति कथं जानीमः महोदय
अग्रे गत्वा जानीमः
अस्तु महोदय
नाम तत्र अस्मत् पुत्रः नाम तत्र अर्थस्य महत्त्वम् अस्ति खलु भगिनि तत्र तत्र अस्माकं पुत्रः मेलनेन तत्र अस्मत् पुत्रः इति भवति खलु
समासे
तर्हि तत्र अस्माकं पुत्रः इति अस्ति यथा तत्र रामस्य पुस्तकं रामपुस्तकम् इति यथा कुर्मः तत्र अर्थस्य महत्त्वम् अस्ति खलु तत्र रामपुस्तकम् इति किं तत्र रामेण पुस्तकं वा अथवा किम् इति तत्र तयोः मध्ये सम्बन्धः कः इति एतत् सर्वं ज्ञातव्यं खलु हा तर्हि तत्र समासः इति नाम यत्र केवलं ध्वनिः नाम तत्र वर्णः अथवा ध्वनिः तस्य एव महत्त्वम् अस्ति चेत् तत् महत्त्वं सन्धिकार्ये केवलं तत्र ध्वनेः महत्त्वम् अर्थस्य महत्त्वं नास्ति तत्र सन्धिकार्यं कार्ये
इत्युक्ते पूर्वम् अस्माकम् अस्ति सन्धि भूत्वा अस्मत् भवति वा
न तत्र अस्मत् पुत्रः इति एव तत्र प्रायशः तत्र अस्मत् पुत्रः इति समासस्य कार्यं किन्तु समाससमये सन्धिकार्यं भवति
समासे अपि सन्धिकार्यं भवति इति
पठति हा इति एव तथैव अस्ति नाम प्रथमतया समासकार्यं तस्मिन् एकं सोपानमस्ति सन्धिकार्यं तत्र समासकार्ये अर्थस्य महत्त्वं नाम तत्र अस्य पदस्य अर्थः कः इति तस्य महत्त्वं भवति सन्धिकार्ये पदस्य अर्थः कः इति नास्ति केवलं तत्र प्रथमपदस्य अन्तिमवर्णः कः द्वितीयपदस्य आदिमवर्णः कः तेन एव तत्र सन्धिकार्यं भवति तावदेव तत्र अर्थस्य महत्त्वं नास्ति अस्तु तर्हि उषास्वामिनि अग्रे तत् अतः
विना वर्गीयव्यञ्जनस्य कर्कषव्यञ्जने हरिपरे सवर्गीयप्रथमव्यञ्जनं हरिपरे तद्वर्गीयप्रथमव्यञ्जनं तर् आदेशः भवति आम् तदेव अत्र ङणनान् विहाय वर्गीयव्यञ्ज ङणनान् विहाय विना इति झलाम् इति झलाम् इति सूचयति वर्गीयव्यञ्जनस्य कर्कषव्यञ्जने परे कर्कषव्यञ्जने इत्युक्ते करिवर्णः परः अस्ति चेत् जलां परे करिवर्णः अस्ति चेत् तत् वर्गीय प्रथमव्यञ्जनं चर् आदेशः भवति चर् भवति इति तद्वर्गीयप्रथमवर्णं प्रथमव्यञ्जनवर्णं आदेशः भवति जलां स्थाने चर् आदेशः भवति करिपरः अस्ति कर्कषः वर्णः परः अस्ति अस्मिन् सन्धौ
कर्कषः इत्युक्ते प्रथम अथवा द्वितीयसदस्यः
द्वितीय अपि च शस अपि अस्ति करि कर्कष आं महोदय अस्मिन् सन्धौ चर्वर्णाः आदेशः भवन्ति अतः चत्वसन्धि इति नाम अग्रे पठामि वा महोदय
आदेशरूपेण भवन्ति अस्तु समीचीनम् अस्तु अग्रे धन्यवादः भगिनि अग्रे सुजाता भगिनि
आं महोदय मञ्जूषायां निर्दिष्टेषु पदेषु उचितपदं चित्वा रिक्तस्थानानि पूरयत विपत् दृष्टो दुरा षाट् मञ्जूषा
तत्र
शब्दानि सन्ति
प्रथमपदं पठतु भगिनि
सम्पत् योगः पुत्रः सम्पदकारस्य स्थाने तकार आदेशः भवति चर्वर्णः दकारः जलां जल वर्णः अस्ति तकारः चर्वर्णः अस्ति सम्पत् पुत्रः भवति
तत्र प इति करि तत्र सम्पत्पुत्रः इति भवति अस्तु अग्रिमं
षट् भाज्यानि षट् योगः षट् योगः षड् योगः खाद्यानि भवति डकारः जलवर्णः अस्ति तस्य स्थाने खर्वर्णः आदेशः भवति षट् खाद्यानि
हा इति अस्ति समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र इदानीं वेदभगिनी अग्रे
कामधुग् योगः खादति तत्र कामधुग् गकार कामधुग् योग खादति गकार प्रथमपाद पदे गकार अन्तिमवर्णः गकार अस्ति गकार जल् झर्वर्णः अस्ति चेत् जल्वर्णपरे खर्वर्णः अस्ति खादति ख अस्ति खर्वर्णः अस्ति इति कारणतः खरि च सूत्रं तत्र कार्यं करोति खरि च सूत्रेण तत्र चर आदेशः भवति जल् स्थाने चर आदेशः भवति गकारस्य स्थाने ककार आदेशः भवति इति कारणतः कामदुक् खादति इति रूपं निष्पन्नं कामधुक् खादति तदेव तादृक् कर्म तस्य तत्र तादृग् गकार तादृग् योः कर्म तत्र तादृग् तत्र गकार अस्ति झल्वर्णः तस्य परे ककार अस्ति खर्वर्णः तदेव खरीच सूत्रेण झल्वर्णस्य स्थाने चरादेशः भवति चर् इत्युक्ते प्रथमवर्णः गकारस्य प्रथमवर्णः अस्ति ककार तदेव तादृक् कर्म इति रूपम् आयाति
समीचीनं समीचीनं तादृक् कर्म अस्तु समीचीनम् अग्रे शुभं भगिनि
आं महोदय अग्रिमं तत्र सिद्धरूपं विपत् प्रतिकारः इति दत्तमस्ति तत्र तव विपत् प्रथमवर् पदात् पदस्य अन्ते तकारः दृश्यते अतः तत्र पूर्वं दकारः आसीत् इति अनुमानं कर्तुं शक्नुमः विपद् योगः प्रतिकारः इति स्थितौ विपद् इत्यस्य दकारः पदान्तदकारः तस्य करीच इत्यनेन परवर्णः पकारः खर् प्रत्याहारस्थवर्णः अतः खरीच इति सूत्रेण दकारस्य स्थाने तद्वर्गीयप्रथमवर्णः आदेशः भवति तकारः आदेशः भवति विपत् इति भूत्वा विपत् योगः प्रतीकारः विपत् प्रतीकारः इति भवति अग्रिमं हा विराड् योगः तत्र सिद्धपदे पुरुषः विराट् पुरुषः इति अस्ति तत्रापि विराड् इत्यस्य डकारः पदान्तडकारः तस्मात् परं पुनः पकारः अस्ति पुरुषः इति खर्वर्णः अतः खरिच इत्यनेन डकारस्य तत्र टवर्गीयप्रथमवर्णः टकारः आदेशरूपेण भवति अतः विराट् पुरुषः इति रूपं सिद्ध्यति
अग्रे विराट् पुरुषः समीचीनं भगिनि अस्तु अग्रे तत्र उषा दिवति भगिनि अग्रे पठति वा
आं महोदय सिद्धरूपम् अस्ति सम्पत् प्रतीक्षा योगः प्रतीक्षा इति अस्ति सम्पत् तकारः अस्ति तत्र सम्पत् इति पदस्य अन्तिमवर्णः झल् वर्णः अस्ति तकारः प्र प प इति स्वीकरणीया प्र प इति एव स्वीकरणीयं न महोदय खर्
कुत्र भगिनि
प्रतीक्षा खर्
पकारः
पकारः एव खर् वर्णः अतः झल् स्थाने चरादेशः भवति खरि परे इति सूत्रेण सम्पत् प्रतीक्षा इति रूपं भवति अनन्तरं सर्वः तुराषाट् तुराषाट् सर्वः तुराषाट् इति पदस्य अन्तिमवर्णः अस्ति टकारः झल् प्रत्ययः अस्ति स खर्व खर् खर् प्रत्यये अस्ति स वर्णः खरि च
तत्र खर् प्रत्यये तत्र किं किम् अस्ति
ख प्रथम वर्गीय प्रथम द्वितीय अपि च ष ष स
हा समीचीनं भगिनि हा समीचीनं
खरिच इति सूत्रेण तुराषाट् सर्वः इति रूपम् अभवत्
इति भवति समीचीनम् अग्रे तत्र अग्रे तत्र उषास्वामिनाथन् भगिनि न पठितवती खलु
आं महोदय वाग् योगः वाक् खेली इति अत्र दत्तं वाग् योगः खेली इति स्थिते वाक् खेलिः इति भवति ककारः परः अस्ति इत्यनेन गकारस्य स्थाने ककारः आयाति वाक् खेलिः इति भवति त्रिष्टुब् छन्दः इति अत्र दत्तं त्रिष्टुब् योगः छन्दः इति अस्ति चेत् त्रिष्टुब् बकारः बकारस्य स्थाने अल्पप्राण महोदय अल्पप्राणबकारः खलु त्रिष्टुब् छन्दः त्रिष्टुप् छन्दः इति भवति बकारस्य स्थाने पकारः आयाति यतोहि चकारः परः अस्ति इत्यनेन चकारः कर्वर्णः इति अस्ति सो त्रिष्टुप् छन्दः इति भवति
तत्र बकारः
अनुष्टुब् ऐ गेस् अनुष्टुब् इस् महाप्राण सो त्रिष्टुब् मे बि इस् आल्सो महाप्राण
मञ्जूषायां यद् दत्तं तत्र
त्रिष्टुब् महाप्राण एव दत्तम् ओ आम् आम्
आम् आम् आम् त्रिष्टुब् इति एव आं तत्र दत्तमस्ति खलु आमामां त्रिष्टुब् इति एव दत्ते मञ्जूषायाम् अस्तु प्रश्नः समीचीनम् अस्तु तर्हि तत्र तर्हि चर्त्वसन्धिः तत्र प्रायशः तत्र इदानीं परिचितः सन्धिः भवति इति मन्ये खलु नाम तत्र करिपरे तत्र चरादेशः भवति इति तर्हि अग्रे सरामः किं तत्र इदानीं तत्र करपत्रे अनुनासिकसन्धिः तदनन्तरम् अनुस्वारसन्धिः परसवर्णसन्धिः सन्धिः आमामां तत्र
पुनः
सत्त्वसन्धिः 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 तत्र अन्ते प्रायशः तत्र किमर्थं तत्र मिश्र अभ्यासः न दत्तं वा इति न दत्तं वा आमां प्रायशः दत्तम् अस्ति इति मन्ये
अस्तु
आमां तत्र पेज् 45 मध्ये तत्र मिश्रण अभ्यासः यतोदाहरणं प्रतिसन्धिपदं विभज्य विजातीयपदं निर्णि
अथवा गीताश्लोकं पठामि किं महोदय
हा इदानीं प्रायशः तत्र अनुनासिकसन्धिमध्ये प्रायशः पठामः भगिनि गीता भगवद्गीतायाः श्लोकान् पठामः प्रथमतया तत्र अनुनासिकसन्धिः तु तत्र विवरणं तु लघु एव अस्ति खलु करपत्रे अतः तत् कृत्वा उदाहरणे तत्र ईदृशम् इति यत् सर्वमस्ति तत्र श्लोकान् निश्चयेन पठामः भगिनि समीचीनम् अस्ति तर्हि तत्र अग्रे हा तत्र सुजाता भगिनी आरम्भं करोति वा अग्रे
महोदय यरोनुनासिके यरोनुनासिके अनुनासिको वा अष्टमाध्यायस्य चतुर्थपादस्य पञ्चचत्वारिंशत्तमसूत्रमस्ति पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परे स्थानेन्द्रतमः तमः इत्यनेन निर्धारणं क्रियते कार्यं वैकल्पिकं प्रत्यये परे तु नित्यं यर् प्रत्याहारे हकारं वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः यरः षष्ट्यन्तम् अनुनासिके सप्तम्यन्तम् अनुनासिकः प्रथमान्तं वा अव्ययपदम् अनेकपदमिदं सूत्रं न पदान्तपूरणाम् इत्यस्मात् पदान्तात् इत्यस्य अधिकारः तस्य च विभक्तिपरिणामः इति कृत्वा षष्टिविभक्तौ भवति तयो यवावाचे संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम् पदान्तस्य यरः अनुनासिक यरः अनुनासिको वा स्यात् अनुनासिके परे अनु यर प्रत्याहारस्य वर्णाः हकारं वर्जयित्वा सर्वे हल् वर्णाः भवन्ति
तत्र हल् इत्युक्ते तत्र सर्वे वर्णाः
हकारं वर्जयित्वा
सर्वे नाम सर्वे व्यञ्जनानि सर्वाणि
सर्वे व्यञ्जनानि भवन्ति
किन्तु यर् इति वदामश्चेत् तत्र किं भवति ह य इति तत्र हकारः आदौ अस्ति तदर्थं यकारः पुनः तत्र अन्तिमसूत्रमस्ति हल् तस्मात् प्राक् खर् शर् इति अस्ति खलु शर् हा तर्हि यर् इत्युक्ते तावत्पर्यन्तं तर्हि ह हकारद्वयं वर्जयित्वा तत्र हकारं वर्जयित्वा तावदेव हा सर्वे हल् वर्णाः अन्तर्भूताः समीचीनं तदा अनन्तरं
यर्वर्णस्थाने अनुनासिको वा स्यात् अनुनासिकवर्णः विकल्पेन आयाति
तत्र यरः इति षष्ट्यन्तं
यरः इति षष्ट्यन्तम् अनुनासिके सप्तम्यन्तं स्थाने यर्वर्णः स्थाने भवति अनुनासिके परे अनुनासिकप्रथमान्तम् अनुनासिक आयाति आदेशः भवति
वा इति अस्ति अथ विकल्पेन
विकल्पेन
महोदय एकः प्रश्नमस्ति कार्यं वैकल्पिकं प्रत्यये परे तु नित्यं प्रत्यय कुत्र आयाति तत्र प्रत्यये परे इति प्रत्यये परे तु नित्यम्
अग्रे वार्तिकमस्ति भगिनि मयप्रत्ययः इति कृते
प्रत्ययस्य भाषायां नित्यं भवति इति प्रत्यये भाषायां नित्यम् इति वार्तिकेन
अधोभागे तत्र निर्दिष्टमस्ति
दृष्टवती
समीचीनं तर्हि तत्र अस्तु सुजस्तु भगिनी तर्हि तत्र अस्तु
अनुनासिक अन्न वा अस्ति इत्यनेन विकल्पेन भवति न पदान्तात् पूर्णम् इत्यस्मात् पदान्तात् इत्यस्य अधिकारः तयोर्यव वाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति पदान्तस्य यरः स्थाने अनुनासिकवर्णे परे अनुनासिकवर्णः विकल्पेन आयाति संहितायाम्
अस्तु तत्र मम प्रश्नः अस्ति मध्ये तत्र पदान्तात् इत्यस्य अधिकारः तस्य च विभक्तिपरिमाणः परिमाणः
इति कृत्वा षष्टिविभक्तः भवति अधिकारः
कोऽपि कापि जानाति वा अर्थः कः किम
तत्र पदान्तात् इति पञ्चमी अस्ति षष्टिविभक्त्यां परिवर्तनं कृतम् पदान्तात् इत्यस्य पदान्तस्य
इति रूपं
तथा सूत्रेषु भवति
भवति अस्तु तावदेव अस्तु 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 धन्यवादः अस्तु
तावदेव अहं जानामि
अस्तु अस्तु भगिनि अस्तु तावदेव अस्तु अस्तु समीचीनं हा तर्हि अग्रे समीचीनं भगिनि सुजाता भगिनि अस्तु अग्रे तत्र हा वेदा भगिनि अग्रे तस्मात्
तस्मात् योगः न तस्मान्न तस्मान् न अपक्षे तस्माद् वाट् इस् इट् तस्माद् न वा किं
तस्माद् न
तस्माद् न जलां जक्षोन्ति इत्यनेन इत्युक्ते
अपक्षे तस्माद्
न तस्माद् न वा विकल्पेन अस्ति इति कारणतः वैकल्पिकम् इति कारणतः इति वा अपक्षे तस्मान् तस्मान्
जलां जशन्ते इत्यनेन
इत्यनेन ओ ओके जलां जशन्ते इत्यनेन तकारस्य दकार भवति तदेव तस्मान् ओके
तस्मात् तदनन्तरं किमर्थम् अनुनासिकसन्धिकार्यं न भवति यतोहि तत्र यरः दकारः अपि
यरः एव
खलु
आम् आम्
भवति महोदय तस्मादस्ति चेदपि भवति
हा तस्मात् न इति एव रूपम् आयाति न महोदय दकारस्य ओ महोदयस्य प्रश्नं
वैकल्पिकरूपं किन्तु तस्माद् योगः नास्ति चेदपि
खलु आमामामां वैकल्पिकमस्ति आमामां सत्यं हा भगिनि तावदेव वैकल्पिकं खलु तत्र अनुनासिकसन्धि
या
तत्र करणीयम् इति नास्ति अतः तत्र तस्मान् न अथवा तस्माद्
न रूपद्वयमपि
समीचीनं हा रूपद्वयमपि समीचीनम् एव अस्तु अस्तु
सुहृद् योगः मित्रं तत्र दकारस्य दकारः यर्वर्णः अस्ति तत्परे मकार अनुनासिकवर्णः अस्ति तदेन तत्र यरोनुनासिकेनुनासिको वा सूत्रेण दकारस्य स्थाने मकार न तत् न स्थानेन्द्रतमः इत्यनेन वर्गस्य अनुनासिकवर्णः अस्ति दकारस्य अनुनासिकवर्णः अस्ति नकार सुहृद् मित्रम् अपि च सुहृद् मित्रं द्वे रूपमस्ति रूपद्वयं वाग् मूलं तत्र वाग्मूलम् एकरूपमस्ति अन्यत् रूपमस्ति गकारस्य स्थाने अनुनासिकवर्ण क क ग ग ग वाग् मूलम् इति
तत्र वाङ्मयम् इति बहुवारं शृण्मः खलु वाङ्मयं
वाङ्मयम् आम् प्रत्ययानुनासिके परे नित्यं भवति प्रत्यये भाषायां नित्यम् इति वार्तिकेन प्रत्ययानुनासिके परे नित्यं भवति प्रत्यये भाषायां नित्यम् इति वार्तिकेन चिद् युगमयं मयं प्रत्यय अस्ति वा कोऽपि जानाति वा अहं न शृण्वति
मयं भगिनि
प्रत्यय वा
अस्ति भगिनि 4392 भगिनि
अच्छा 4293 मात्रं प्रत्यय अस्ति चेत् प्रत्ययस्य आदिमवर्णः अनुनासिकवर्णः मकारः अस्ति इति कारणतः एतत् वार्तिकेन तस्य नित्यरूपं भवति नकार चिन् मयम् इति रूपम् आयाति अण्ड् तद् मात्रम् तत्रापि तन् मात्रम् इति रूपम् आयाति एक एव रूपं तत्र विकल्पं नास्ति वार्तिकेन तद् नित्यं भवति इति
समीचीनं भगिनि उत्तमं
तदेवस्ति तत्र
तावदेव अस्ति अस्तु समीचीनं
महोदय तत्र वाग्योगः मूलं वाङ्मूलम् अपि च वाग्मूलम् इति अस्ति न महोदय यदि वाक् योगः मूलम् अस्ति चेत् जलां जशन्ते कार्यं भवति वाग् अनन्तरं न महोदय
सत्यं भगिनि सत्यं तथैव अस्ति तथैव अस्ति यथा तत्र तस्मात् न इति तस्मिन् मध्ये यद् सूचितं तदेव अत्रापि सत्यं भगिनि अस्तु तर्हि इदानीम् अग्रे तत्र गीताप्रवेशे पठामः तर्हि तत्र उषास्वामिनाथन् भगिनी तत्र पठति वा तत्र अनुनासिकसन्धि प्रथम उदाहरणम्
आम् महोदय अनुनासिकसन्धिः एतानि उदाहरणानि परिशीलयत ईदृग् योगः मम ईदृ योगः घकारः योगः म योगः अम ओके मुयोगः अम ईदृयोगः गकारस्य स्थाने ङकारः आयाति विकल्पेन गकारः अपि अस्ति ङकारः अथवा गकारः अनन्तरं मम सो सिद्धरूपम् अस्ति ईदृङ् मम इति अस्ति अथवा ईदृग् मम इति अस्ति यरो अनुनासिके अनुनासिको वा इत्यनेन गकारः यर् वर्णः परः अनुनासिकः अस्ति इत्यनेन गकारस्य स्थाने तद् वर्गीयपञ्चमवर्णः आदेशः भवति गकारस्य स्थाने ङकारः आयाति ईदृङ् मम इति भवति अथवा ईदृङ् मम विकल्पः अस्ति
समीचीनं तर्हि तत्र श्लोकमपि भगवद्गीतायां श्लोकं यद् श्लोकः ये अस्ति
7.49 ओके महते व्यतामा च विमूढभावाः दृष्ट्वा रूपं घोरम् ईदृङ्ममेतम् व्यपेतभि प्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य माते व्यतामा च विमूढभावः दृष्ट्वा रूपं घोरम् ईदृङ्ममेतम्
मीदृङ्
मीदृङ् या घोरम् ईदृङ्ममेतम् व्यपेतभि प्रीतमना पुनस्त्वं तदेव मे रूपमिदं प्रपश्य दिस् इस् भगवान् इस् सेयिङ्ग् ओके सो मा ते व्यता मा च विमूढभावः डोण्ट् बि स्केर्ड् आर् सम्थिङ्ग् लैक् देट् मा च विमूढभावः डोण्ट् बि कन्फ्यूस्ड् दृष्ट्वा रूपं घोरं मीदृङ् ममेतम् मम इदं रूपं घोरं दृष्ट्वा माते व्यता मा च विमूढभावः ओके व्यपेत भीः प्रीतमनाः पुनस्त्वं तदेव मे रूपम् इदं प्रपश्य व्यपेत भीः व्यपेतम् ओके गान् प्रीतमनाः पुनः त्वं तदेव मे रूपम् इदं प्रपश्य मम रूपं तदेव मे रूपं मम रूपं इदं प्रपश्य पुनः त्वं प्रीतमनाः पुनः त्वं तदेव मे रूपम् इदं प्रपश्य ओके सो डोण्ट् बी अफ्रेड् अण्ड् डोण्ट् बी कन्फ्यूस्ड् लुकिङ्ग् अट् मै घोर रूपम् अण्ड् भीहि टेर् विदौट् दिस् वन्स् द फियर् इस् गान् वित् द प्रीतमनाः पुनः त्वं तदेव मे रूपम् इदं प्रपश्य
तर्हि तत्र भीतिः मास्तु रूपं पुनः पश्यतु प्रपश्य
मम
प्रीतः मनः
प्रीतमनाः पुनः त्वं तदेव मे रूपम् इदं प्रपश्य ओके सो मे षष्टि
त्वं कीदृशः अस्ति व्यपेतभीः असि अपि त्वं प्रीतमनाः असि
प्रीतमनाः असि
तादृशः त्वम् असि त्वं पुनः मम इदं तदेव रूपं
प्रपश्य
विमूढा अपि
विमूढा अपि मास्तु
मास्तु अतः
ईदृङ्ग् ईदृङ्ग् ममेतं दृक् मम इदम् ईदृग् मम
ईदृग् मम
मम विकेम् ईदृङ्ग् मम
समीचीनं भगिनि
धन्यवादः
अग्रे अग्रे तत्र शोभा भगिनी अग्रे
आं महोदय अग्रिममस्ति तस्माद् योगः न तत्र तस्मात् इति इत्यस्य अन्ते यर् वर्णः तस्मात् परं न इति अनुनासिकवर्णः अतः यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण दकारस्य स्थाने विकल्पेन तत्र यतोहि नकारः अस्ति परम् इति कृत्वा अपि च परं तु अनुनासिकवर्णः अस्ति तस्मादिति दकारः तवर्गीयवर्णः अतः तवर्गीयवर्णस्य अनुनासिकवर्णादेशः भवति नकारः आदेशः भवति तस्मान् न इति एकं रूपं तस्मान् न इति यतोहि सूत्रं वैकल्पिकम् इति कृत्वा तस्माद् न इति अपि अन्यत् रूपम् अपक्षे भवति श्लोकः प्रथमे अध्याये सप्तत्रिंशत्तमं सूत्रम् श्लोकम् अस्तु आदिमपदमेव तदस्ति महोदय तत्र तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति अर्जुनः पृच्छति कृष्णं तत्र तस्मान् न अर्हाः तस्मात् इत्युक्ते तस्मात् न अर्हाः वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति तर्हि तत्र तत्र अर्थः दत्तः एव किं तत् वयम् अर्हाः न आस्म किम् अस्ति तत्र महोदय हा आस्म एव खलु अस्मि स्मः वयम् अर्हाः न स्मः न स्मः हन्तुं कान् हन्तुम् इत्युक्ते धार्तराष्ट्रान् स्वबान्धवान् इत्युक्ते धृतराष्ट्रस्य पुत्रान् ये अस्माकं बान्धवाः सन्ति तान् हन्तुं वयं न अर्हाः यतोहि स्वजनं ते तु अन्याः न सन्ति स्वजनाः एव स्वजनं तर्हि तान् कथं हन्मः हन्मः इति भवति महोदय हन्मः हन् धातुः कथं हन्तुं शक्नुमः अपि च यदि कुर्मः चेत् तर्हि सुखिनः कथं भवामः इति प्रश्नं पृच्छति अर्जुनः.
सुखिनः कथं भवामः तत्र
कथं सुखिनः भवामः इति
कथं भवामः इति प्रश्नः. समीचीनं, हा समीचीनं भगिनि. हा तत्र तस्मात् न अर्हाः इति, तर्हि तस्मान् नार्हाः इति. अस्तु समीचीनम्. अस्तु अग्रे तत्र धन्यवादः भगिनि. अग्रे तत्र हा सुजाता भगिनि अग्रे.
आं महोदय. सुहृद् योगः मित्र, सुहृद् सुहृ योगः दकारः, योगः मकारः इत्र. सुहृद् दकारः यर्वर्णः अस्ति, तस्य स्थाने नकारः आयाति. मकार रूपद्वयं भवति, इत्यनेन दकार अपि आयाति. मकारः इत्र यरोर्नासिको अन्नासिको वा इत्यनेन सुहृन् मित्र सुहृद् मित्र ये भवति.
रूपद्वयं समीचीनं भगिनि. अस्तु अग्रे तत्र श्लोकः अस्ति, श्लोकमपि पठतु.
श्लोकः तृतीयाध्याये नवम
षष्ठाध्याये खलु
षष्ठाध्याये नवम सूत्रम् सुहृन्मित्रारुद्यासीना मध्यस्तद्वेष्य बन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते. सुहृन्मित्रारुद्यासीनः तदस्ति शब्दः अस्ति. सुहृद् मित्र
हरि हरि अपि अस्ति तत्र. मित्र हरि
उदासीन
मित्र हरि उदासीन
मित्र
मध्यस्थ द्वेष्य बंधु
बंधुषु साधुष्वपि च पापेषु समबुद्धिः विशिष्यते. सुहृद् मित्रे अपि सुहृदे अपि मित्रे अपि
तत्र सुहृद् इति तत्र मित्रे
सज्जनलयन्
सुहृदि सुहृदि च मित्र
सुहृदि मित्र मित्रे एव भवति न महोदय. मित्रलय
मित्र इति मित्रं
मित्रं
वनम् इव मित्रं मित्रे सप्तमी एकवचने सुहृदि
शत्रुजने अपि
मित्रम् इति तु शत्रुजने नास्ति. मित्रम् इत्युक्ते अरौ हरि हरि इति पुनः भगिनि
उदासीन उदासीन इत्युक्ते करुणा भवेत्.
हा उदासीन इति तत्र किम् अस्ति उदासीन
द्वेषबन्धुषु स्वादिषु साधुष्वपि पापेषु
बन्धुषु
अहं न वक्तुं शक्नोमि महोदय.
सुहृद् सुहृद् इत्युक्ते
सुहृत् इत्युक्ते साधुस्वभावम्.
सुहृद्धि इत्युक्ते
यः भवतः अथवा भवत्याः हितम् इच्छति सः अस्ति सुहृद्. एतस्य सर्वं कुशलं भवतु इति चिन्तनं यस्य अस्ति सः अस्ति सुहृद् खलु. मित्रम् इत्युक्ते मित्रं हा
मित्रम्
हरि हरि इत्युक्ते तत्र शत्रु हरि हा हरि इत्युक्ते शत्रु. उदासीन उदासीन इत्युक्ते समान इति नास्ति सः उदासीनः इत्युक्ते भवत्याः विषये तस्य चिन्तनमेव नास्ति तत्र तत्र किमस्ति उदासीनः इत्युक्ते तत्र न्यूट्रल् नास्ति न्यूट्रल् तादृशं तत्र हा इण्डिफ्रेण्ट् इण्डिफ्रेण्ट् एव भवति हा इण्डिफ्रेण्ट् मध्यस्थ तदनन्तरं द्वेष्य मध्यस्थ नाम न्यूट्रल् तत्र द्वेष्य
द्वेषभाव यस्य
अस्ति द्वेषभाव यस्य अस्ति अपि बन्धुः बन्धुः नाम बान्धवः सम्बन्धः यत्र अस्ति अपि साधुषु
साधुः
साधुषु अपि तत्र पापेषु यस्य समबुद्धिः अस्ति सः विशिष्यते सः एव उत्तमः सुहृन्मित्रः समीचीनं भगिनि हा तावदेव हा अस्तु समीचीनम् अस्तु अग्रे तत्र उषा दिवते भगिनि अग्रे
महोदय वाग्योगः मूलं वायोगः गकारयोगः मकारयोगः मूलं गकारः अस्ति यर् प्रत्यये प्रथमपदस्य अन्तिमवर्णः गकारः यर् प्रत्यये अस्ति मूलं मकारः अनुनासिकवर्णः अस्ति अतः यरोनुनासिकेनुनासिके वा इति सूत्रेण वाग् गकारस्य पञ्चमवर्णः अस्ति नकारः अतः वाङ्मूलम् इति एकं रूपं भवति अपि च वैकल्पेन वाग्मूलम् इति अपि एकं रूपम् आगच्छति.
समीचीनं भगिनि हा तथैव अस्ति अस्तु अग्रे.
एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः अनुनासिकव्यञ्जनम् अस्ति तत्र वर्गीयव्यञ्जनानां स्थाने तत् वर्गीयपञ्चमः वर्णः इत्युक्ते अनुनासिकः वर्णः विकल्पेन आदेशः सम्पन्नः.
एकवारं स्वशब्दैः वदतु.
यदि पदस्य अन्ते यर् प्रत्ययवर्णः अस्ति चेत् अनन्तरं द्वितीयपदस्य प्रथमवर्णः अनुनासिकवर्णः अस्ति चेत् यरनासिके वा अनुनासिके नासिको वा इति सूत्रेण रूपं भवति यर् वर्णस्य तत्तत् वर्गीयस्य पञ्चमवर्णः इत्युक्ते अनुनासिकवर्णः आदेशरूपेण भवति विकल्पेन द्वे रूपम् आगच्छति वाग्मूलम् इति वाङ्मूलम्
इति अस्ति. समीचीनं भगिनि तर्हि तत्र अनुनासिकसन्धि अपि कार्यं करोति अथवा तत्र अन्यत् तत्र तत्र किं तत्र जलां जशोन्ते इति तस्य अपि कार्यं भवति. अस्तु समीचीनं भगिनि अस्तु तर्हि अग्रे सरामः तर्हि तं प्रश्नः अस्ति वा
पठामि वा इति पृच्छ
अस्तु अस्तु पठतु भगिनि अग्रे पठतु.
एते उदाहरणे परिशीलयत. चिद् योगः मयम्, चि योगः दकारयोगः, मकारयोगः अयम्, चि योगः नकारयोगः, मकारयोगः अयम्. चिद् चिद् मयम्, मयम् इति प्रत्ययः अस्ति महोदय, तत्र करपत्रे पठितवन्तः. इत्युक्ते प्रत्यानुनासिके परे नित्यं भवति, प्रत्यये भाषायां नित्यम् इति वार्तिकेन रूपं निष्पन्नं भवति, अतः चिन्मयम् एव भवति. वैकल्पिकेन द्वे रूपं न आगच्छति, तत्र एकमेव रूपम् आगच्छति, चिन्मयम् एव. दकारस्य द धन पञ्चमवर्गीयवर्णः अस्ति, अनुनासिकवर्णः नकारः, अतः चियोगः नकारयोः मकारयोगः अयम्, चिन्मयम् इति रूपं निष्पन्नं भवति.
समीचीनम्.
अद् योगः मात्रम्, मात्रम् अपि प्रत्यय अस्ति इति मन्ये. दकारः तद्, तद् इति पदस्य अन्तिमवर्णः दकारः, यर् प्रत्ययः अस्ति. मकारः द्वितीयपदस्य प्रथमवर्णः मकारः, यर् यर् प्रत्यये अस्ति, अतः न प्रत्यये भाषायां नित्यम् इति वार्तिकेन तयोगः दयोः मकारयोः आत्रं नकार भवति. अत्र अनुनासिके यरोनुनासिके वा अनुनासिको वा इति उक्तं वा, अथवा प्रत्यये भाषायां नित्यम् इति?
तत्र प्रायः द्वयमपि अस्ति, नाम तत्र प्रथमकार्यं किम् अस्ति इति तस्य निर्धारः तत्र प्रथमसूत्रेण भवति. तदनन्तरं किन्तु तत्सूत्रं तु तत्र वैकल्पिकम् इति वदति वार्ति, तत्र प्रत्याहारे तत्र हा, तदनन्तरं तत्र नित्यं प्रत्यये परे तु नित्यम् इति तत्र वार्तिकेन द्वयोः कार्यम् अस्ति इति मन्ये.
वदनसमये सन्धि यरोनुनासिके वा अनुनासिको वा अपि वक्तव्यम्, अनन्तरं प्रत्ययभाषायां नित्यम् इति अपि वदनीयं न महोदय?
हा इति मन्ये भगिनि, नाम तत्र प्रथमतया तत्र वदामः तत्र अस्तु तत्र तद् योगः मात्रं तत्र तन्मात्रं किमर्थम् एकमेव रूपम् अस्ति इति तस्य समाधानार्थं तत्र प्रत्यये भाषायां नित्यम् इति वक्तव्यम् इति मन्ये, तावदेव.
प्रत्यये भाषायां नित्यम् इति वार्तिकेन तन्मात्रम् इति रूपं निष्पन्नं भवति.
हा एकमेव रूपम् अस्ति, नाम तत्र कार्यमस्ति यरो अनुनासिके अनुनासिको वा इति तेन कार्यमस्ति. कार्यानन्तरं तत्र किमर्थम् एकमेव रूपं वैकल्पिकः इति आसीत् खलु इत्युक्ते, न न वैकल्पिकं नास्ति, प्रत्यये भाषायां नित्यम् इत्यनेन केवलम् एतदेव रूपम्, अन्यत् रूपं नास्ति. अस्तु अग्रे तर्हि तत्र हा वेदभगिनी अग्रे.
महोदय, एतयोः उदाहरणयोः वर्गीयव्यञ्जनात् परतः प्रत्ययस्य अनुनासिकव्यञ्जनम् अस्ति. तत्र वर्गीयव्यञ्जनस्य स्थाने तद्दद् वर्गीयपञ्चमो वर्णो अनुनासिकः नित्यम् आदेशः सम्पन्नः. यद् भवान् उक्तवान् तदेव उपरि एतद् उदाहरणं दत्तं, तत्र एकमेव रूपं दृश्यते, तत्कारणमस्ति एक वार्तिकमस्ति प्रत्यये भाषायां नित्यमिति. तत् यत्र यत्र प्रत्ययः आयाति, पदस्य परे प्रत्ययम् आयाति, तत्र रूपम् एकमेव सम्पन्नं निष्पन्नम् इति दत्तं. तत्र एकमेव रूपमस्ति, विकल्पेन नास्ति, एकमेव रूपं यरोनि नासिकेनु नासिको वा इति सूत्रेण एकरूपमायाति, अन्यत् रूपं जलां जशोन्ते रूपं न दृश्यते तत्र.
समीचीनम्.
अस्तु अग्रे. अतः अनुनासिकव्यञ्जनेषु परेषु पदान्ते स्थितानां वर्गीयव्यञ्जनानां तद्वर्गीयः पञ्चमो वर्णो अनुनासिकः विकल्पेन आदेशो भवति. अनुनासिकादौ प्रत्यये परे तु नित्यमेव अनुनासिको भवति इति. अस्मिन् सन्धौ अनुनासिकः आदेशः भवति. अस्मिन् सन्धौ अनुनासिकः आदेशः भवति. अतः अनुनासिकसन्धिः इति नाम. तस्य नाम अस्ति अनुनासिकसन्धिः इति. अनुनासिकः आदेशः भवति इति कारणतः किं वदामि, सन्धि सन्ध्यः वा न षष्ठी सन्धेः सन्धेः अनुनासिकसन्धि इति ग्रामकरणम्.
अस्तु अग्रे करोतु.
सन्धिं कुरुत. अनारम्भात् योगः नैष्कर्म्यम्. अनारम्भात् तत्र द्वितीयपदे आरम्भवर्णः अस्ति नकार अनुनासिकवर्णः. प्रथमपदे अन्ते तकार अस्ति, यर्वर्णः अस्ति इति कारणतः यरोनुनासिकेनु नासिको वा इति सूत्रेण तत्र तकारस्य पञ्चमवर्ण अनुनासिकवर्णः अस्ति. नकार तदेव तत्र सन्धिकार्यं भूत्वा तत्र रूपमस्ति. अनारम्भान् नैष्कर्म्यम्. अनारम्भान् नैष्कर्म्यम् इति एकं रूपमस्ति. एकं रूपम्. अन्यत् रूपमस्ति अनारम्भाद् नैष्कर्म्यम् इति.
अनारम्भाद् नैष्कर्म्यम्. समीचीनं भगिनि.
अन्यत् वाग्
समीचीनम्. अग्रे अग्रे तत्र श्लोकः
ओ श्लोकः अस्ति वा 3.4. न कर्माणाम् अनारम्भान् नैष्कर्म्यं पुरुषोष्णुते न च सन्न्यसनादेव सिद्धिं समधिगच्छति. न कर्माणां कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोष्णुते. तत्र अस्ति अनारम्भान्
अनारम्भात्
नैष्कर्म्यं पुरुषो अश्नुते. न च सन्न्यसनादेव सिद्धिं समधिगच्छति. अस्तु तत्र किमस्ति न कर्मणाम् इत्युक्ते कोऽपि कार्यं न करोति चेत् इति वा. न कर्मणां
तत्र षष्टी खलु, षष्टी बहुवचनं.
आरम्भात्
इत्युक्ते खलु आरम्भात्. किन्तु अत्र अनारम्भात् नाम आरम्भात्
न आरम्भात् नैष्कर्म्यं पुरुषः अश्नुते. नैष्कर्म्यम् इत्युक्ते किमस्ति. नैष्कर्म्यम् इत्युक्ते लिबरेशन् वा.
आमां भगिनि, नाम तत्र नैष्कर्म्यं नाम तत्र कर्मणः फलात् तत्र मोक्षः, मुक्तिः. नैष्कर्म्यं नाम तत्र कर्मणः फलम् एतस्मात् एतेभ्यः मुक्तिः इति नैष्कर्म्यम्.
किन्तु प्राप्यते
नाम तत्र कर्म यदि वयं कर्म न कुर्मः इति कोऽपि चिन्तयति, अहं कर्म न करोमि इति चिन्तयति चेत् तेन नैष्कर्म्यं न भवति.
अस्तु,
नाम कर्मान् कर्मणाम् अनारम्भात्, नाम कर्म करणीयम् अस्ति किन्तु न करोति, तेन नैष्कर्म्यं भवति वा न भवति? संन्यसनाद्
न च संन्यसनादेव, न्यसनात् एव
संन्यसनात् नाम
विभवति तत्र.
संन्यसनात् तत्रापि षष्टि एव, क्षम्यता,
पञ्चमी.
संन्यसनाद्
संन्यसनात् एव,
तस्मात्
संन्यसनात् इत्युक्ते संन्यासं भूत्वा वा?
न न न, संन्यसन कर्म कर्मणः संन्यसनात् नाम तत् सर्वम् अहम् इदानीं किमपि न करोमि, सर्वं त्यजामि इति.
सर्वं त्यक्त्वा सिद्धिं
महोदय, न्यास इति त्यागे भवति खलु?
न्यासम् इत्युक्ते शरणागति.
सत्यं सत्यं भगिनि, हा हा सत्यं, तदेव तदेव न्यास इति.
न्यासम् इत्युक्ते सर्वं त्यक्त्वा,
हा सं नाम सम्यक् रीत्या
सन्यासी इति अपि,
हा तदेव अतः तत्र तदपि तेन अपि तत्र सिद्धिं
समधि गच्छति,
न समधि गच्छति, न इति अस्ति आरम्भे, न अधिगच्छति, न प्राप्नोति, न प्राप्नोति. अतः तत्र केवलं सर्वं त्यजामि इति इत्यनेन किमपि न भवति तत्र.
अस्तु,
तत्र न अपि, हा अतः कार्यं न करोमि सर्वं त्यजामि इति तस्मात् तत्र सिद्धिम् अथवा मुक्तिः न भवति,
न प्राप्नोति, न प्राप्नोति.
हा अतः तत्र यदि केवलं पश्यामः तत्र कर्मणाम् अनारम्भान् इति पश्यामश्चेत् तत्र किम् अनारम्भान् इति किं कर्मपदं वा इति चिन्तयामः, किन्तु तत्र अनारम्भात् इति तत्र पञ्चमी अस्ति, तदनन्तरं तकारस्य
सन्धिकार्यं भूत्वा
अतः अनारम्भान् नैष्कर्म्यम् इति एव तत्र अस्ति खलु, अनारम्भान् नैष्कर्म्यम् इति अस्ति. अस्तु, समीचीनं,
धन्यवादः महोदय.
हा धन्यवादः भगिनि, समीचीनमस्ति. हा तर्हि समीचीनं, तर्हि तत्र अन्ते तत्र शुभा भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा, तदनन्तरं स्थगयामः.
आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः महोदय, नमस्कारः.
धन्यवादः भगिनी, धन्यवादः.